वैतत्यं सर्वभावानां वैतत्यं सर्वभावानां स्वप्न आहुर्मनीषिणः स्वप्न आहुर्मनीषिणः अन्तःस्थानात्तु भावानां अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना संवृतत्वेन हेतुना अदीर्घत्वाच्च कालस्य अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति गत्वा देशान्न पश्यति प्रतिबुद्धश्च वै सर्वः प्रतिबुद्धश्च वै सर्वः तस्मिन् देशेन विद्यते तस्मिन् देशेन विद्यते अभावश्च रथादीनाम् अभावश्च रथादीनाम् श्रूयते न्यायपूर्वकम् श्रूयते न्यायपूर्वकम् वैतत्यं तेन वै प्राप्तम् वैतत्यं तेन वै प्राप्तम् स्वप्न आहुः प्रकाशितम् स्वप्न आहुः प्रकाशितम् अन्तःस्थानात्तु भेदानाम् अन्तःस्थानात्तु भेदानाम् तस्माज्जागरिते स्मृतम् तस्माज्जागरिते स्मृतम् यथा तत्र तथा स्वप्ने यथा तत्र तथा स्वप्ने संवृतत्वेन विद्यते संवृतत्वेन विद्यते स्वप्नजागरितस्थाने स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः ह्येकमाहुर्मनीषिणः वेदानां हि समत्वेन वेदानां हि समत्वेन प्रसिद्धेनैव हेतुना प्रसिद्धेनैव हेतुना आदावन्ते च यन्नास्ति आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्थता वर्तमानेऽपि तत्थता वितत्थैः सदृशा सन्तः वितत्थैः सदृशा सन्तः अवितथा इव लक्षिताः अवितथा इव लक्षिताः सप्रयोजनता तेषां सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते स्वप्ने विप्रतिपद्यते तस्मादाद्यन्तवत्त्वेन तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः मिथ्यैव खलु ते स्मृताः अपूर्वं स्थानि धर्मो हि अपूर्वं स्थानि धर्मो हि यथा स्वर्गनिवासिनाम् यथा स्वर्गनिवासिनां तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः स्वप्नवृत्तावपि त्वन्तः चेतसा कल्पितं त्वसत् बहिश्चेतो गृहीतं सत् दृष्टं वैतथ्यमेतयोः जाग्रद्वृत्तावपि त्वन्तः चेतसा कल्पितं त्वसत् बहिश्चेतो गृहीतं सत् युक्तं वैतथ्यमेतयोः उभयोरपि वैतथ्यम् भेदानां स्थानयोर्यदि क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः कल्पयत्यात्मनात्मानम् आत्मादेवस्वमायया स एव बुध्यते भेदान् इति वेदान्तनिश्चयः विकरोत्यपरान् भावान् अन्तश्चित्ते व्यवस्थितान् नियतांश्च बहिश्चित्तः एवं कल्पयते प्रभुः चित्तकालाहियेन्तस्तु द्वयकालाश्च ये बहिः कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः अव्यक्ता एव येन्तस्तु, अव्यक्ता एव येन्तस्तु, स्फुटा एव च ये बहिः, स्फुटा एव च ये बहिः, कल्पिता एव ते सर्वे, कल्पिता एव ते सर्वे, विशेषस्त्विन्द्रियान्तरे, विशेषस्त्विन्द्रियान्तरे, जीवं कल्पयते पूर्वम्, जीवं कल्पयते पूर्वम्, ततो भावान् पृथग्विधान्, ततो भावान् पृथग्विधान्, बाह्यानाध्यात्मिकांश्चैव, बाह्यानाध्यात्मिकांश्चैव, यथा विद्यस्तथा स्मृतिः, यथा विद्यस्तथा स्मृतिः, अनिश्चिता यथा रज्जुः, अनिश्चिता यथा रज्जुः, अन्धकारे विकल्पिता, अन्धकारे विकल्पिता, सर्पधारादिभिर्भावैः, सर्पधारादिभिर्भावैः, तद्वदात्मा विकल्पितः, तद्वदात्मा विकल्पितः, निश्चितायां यथा रज्ज्वाम्, निश्चितायां यथा रज्ज्वाम्, विकल्पो विनिवर्तते, विकल्पो विनिवर्तते, रज्जुरेवेति चाद्वैतम्, रज्जुरेवेति चाद्वैतम्, तद्वदात्मविनिश्चयः, तद्वदात्मविनिश्चयः, प्राणादिभिरनन्तैश्च, प्राणादिभिरनन्तैश्च, भावैरेतैर्विकल्पितः, भावैरेतैर्विकल्पितः, मायैषा तस्य देवस्य, मायैषा तस्य देवस्य, यया सम्मोहितः स्वयम्, यया सम्मोहितः स्वयम्, प्राण इति प्राणविदः, प्राण इति प्राणविदः, भूतानीति च तद्विदः, भूतानीति च तद्विदः, गुणा इति गुणाविदः, गुणा इति गुणाविदः, तत्त्वानीति च तद्विदः, तत्त्वानीति च तद्विदः, पादा इति पादविदः, पादा इति पादविदः, विषया इति तद्विदः, विषया इति तद्विदः, लोका इति लोकविदः, लोका इति लोकविदः, देवा इति च तद्विदः, देवा इति च तद्विदः, वेदा इति वेदविदः, वेदा इति वेदविदः, यज्ञा इति च तद्विदः, यज्ञा इति च तद्विदः, भोक्तेति च भोक्तृविदः, भोक्तेति च भोक्तृविदः, भोज्यमिति च तद्विदः, भोज्यमिति च तद्विदः, सूक्ष्म इति सूक्ष्मविदः, सूक्ष्म इति सूक्ष्मविदः, स्थूल इति च तद्विदः, स्थूल इति च तद्विदः, मूर्त इति मूर्तविदः, मूर्त इति मूर्तविदः, अमूर्त इति च तद्विदः, अमूर्त इति च तद्विदः, काल इति कालविदः, काल इति कालविदः, दिश इति च तद्विदः, दिश इति च तद्विदः, वादा इति वादविदः, वादा इति वादविदः, भुवनानीति तद्विदः, भुवनानीति तद्विदः, मन इति मनोविदः, मन इति मनोविदः, बुद्धिरिति च तद्विदः, बुद्धिरिति च तद्विदः, चित्तमिति चित्तविदः, चित्तमिति चित्तविदः, धर्माधर्मौ च तद्विदः, धर्माधर्मौ च तद्विदः, पञ्चविंशक इत्येके, पञ्चविंशक इत्येके, षड्विंश इति चापरे, षड्विंश इति चापरे, एकत्रिंशक इत्याहुः, एकत्रिंशक इत्याहुः, अनन्त इति चापरे, अनन्त इति चापरे, लोकान् लोकविदः प्राहुः, लोकान् लोकविदः प्राहुः, आश्रमा इति तद्विदः, आश्रमा इति तद्विदः, स्त्रीपुंन पुंसकं लैङ्गाः, स्त्रीपुंन पुंसकं लैङ्गाः, परापरमथापरे, परापरमथापरे, सृष्टिरिति सृष्टिविदः, सृष्टिरिति सृष्टिविदः, लय इति च तद्विदः, लय इति च तद्विदः, स्थितिरिति स्थितिविदः, स्थितिरिति स्थितिविदः, सर्वे चेहतु सर्वदा, सर्वे चेहतु सर्वदा, यं भावं दर्शयेद्यस्य, यं भावं दर्शयेद्यस्य, तं भावं स तु पश्यति, तं भावं स तु पश्यति, तं चावति स भूत्वासौ, तं चावति स भूत्वासौ, तद्ग्रह समुपैतितं, तद्ग्रह समुपैतितं। ये तैरेशो पृथक् भावैः, ये तैरेशो पृथक् भावैः, पृथगे वेति लक्षितः, पृथगे वेति लक्षितः, एवं यो वेद तत्त्वेन, एवं यो वेद तत्त्वेन, कल्पयेत् सो विशङ्कितः, कल्पयेत् सो विशङ्कितः। स्वप्नमाये यथा दृष्टं, स्वप्नमाये यथा दृष्टं, गन्धर्वनगरं यथा, गन्धर्वनगरं यथा, तथा विश्वमिदं दृष्टं, तथा विश्वमिदं दृष्टं, वेदान्तेषु विचक्षणैः, वेदान्तेषु विचक्षणैः। न निरोधो न च उत्पत्तिः, न निरोधो न च उत्पत्तिः, न बध्यो न च साधकः, न बध्यो न च साधकः, न मुमुक्षुर्न वै मुक्तः, न मुमुक्षुर्न वै मुक्तः, इत्येषा परमार्थता, इत्येषा परमार्थता। भावैरसद्भिरेवायं, भावैरसद्भिरेवायं, अद्वयेन च कल्पितः, अद्वयेन च कल्पितः, भावा अप्यद्वयेनैव, भावा अप्यद्वयेनैव, तस्माद् अद्वयता शिवा, तस्माद् अद्वयता शिवा। ना आत्मभावेन नानेदं, ना आत्मभावेन नानेदं, न स्वेनापि कथञ्चन, न स्वेनापि कथञ्चन, नापृथङ् नापृथक् किञ्चित्, नापृथङ् नापृथक् किञ्चित्, इति तत्त्वविदो विदुः, इति तत्त्वविदो विदुः। वीतरागभयक्रोधैः, वीतरागभयक्रोधैः, मुनिभिर्वेदपारगैः, मुनिभिर्वेदपारगैः, निर्विकल्पो ह्ययं दृष्टः, निर्विकल्पो ह्ययं दृष्टः, प्रपञ्चोपशमोद्वयः, प्रपञ्चोपशमोद्वयः तस्मादेवं विदित्वैनं तस्मादेवं विदित्वैनं अद्वैते योजयेत् स्मृतिम् अद्वैते योजयेत् स्मृतिम् अद्वैतं समनुप्राप्य अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् जडवल्लोकमाचरेत् निस्तुतिर्निर्नमस्कारः निस्तुतिर्निर्नमस्कारः निःस्वधाकार एव च निःस्वधाकार एव च चलाचल निकेतश्च चलाचल निकेतश्च यतिर्यादृच्छिको भवेत् यतिर्यादृच्छिको भवेत् तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः तत्त्वं दृष्ट्वा तु बाह्यतः तत्त्विभूतस्तदा रामः तत्त्विभूतस्तदा रामः तत्त्वादप्रच्युतो भवेत् तत्त्वादप्रच्युतो भवेत्।